यथा राघव निर्मुक्त सरस्वसन विक्रम गच्छे तद्वद् गमिष्यामि लंकां रावण पालितां नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम् अनेनैव हि वेगेन गमिष्यामि सुरालयं यदि वा त्रिदिवे सीतां न द्रक्ष्यामकृतश्रमः बद्ध्वा राक्षसराजानमानयिष्यामि रावणं सर्वधा कृतकार्योऽहमेष्यामि सह सीतया आनयिष्यामि वालङ्कां समुत्पाट्य स रावणाम्।